नमः श्रीसरस्वत्यै नमः अविघ्नमस्तो अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टोच्छन्दः चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम् दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशते पाठाङ्गजपे विनियोगः ॐ नमश्चण्डिकायै ॐ मार्कण्डेय उवाच ॐ यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यदिदाख्यातम् तन्मे ब्रोहि पितामह ब्रह्मोवाच अस्ति गुह्यतमम् विप्रा सर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् दक्षृणुष्व महामुने प्रथमम् शैलपुत्रे द्विरेयम् ब्रह्मचारिणी त्रयेयम् चन्द्रघण्टेरे कोष्माण्डेति चतुर्थकम् पञ्चमम् स्कन्दमारेरे षष्ठम् कात्यायनेति च सप्तमम् कालरात्रिश्च महागौरेति चाष्टमम् नवमम् सिद्धिदात्रे च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निना दह्यमानस्तो शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ताशरणम् गता न तेषाम् जायते किञ्चिदशुभम् रणसङ्कटे नापदम् तस्य पश्यामि शोकदुःखभयम् न हि यैस्तु भक्त्या स्मृता नूनम् तेषाम् सिद्धिः प्रजायते प्रेतसंस्थातु चामुण्डा वाराही महिषासना ऐन्द्रेगजसमारूढा वैष्णवे गरुडासना माहेश्वरे वृषारूढा कौमारे शिखिवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता नानाभरणशोभाढ्या नानारत्नोपशोभिता दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः शङ्खम् चक्रम् गदाम् शक्तिम् हलम् च मुसलायुधम् खेटकन्तोमरम् चैव परशुम् पाशमेव च कुन्तायुधम् त्रिशूलम् च शार्ङ्गमायुधमुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानेत्थम् देवानाम् च हिताय वै महाबले महोत्साहे महाभयविनाशिने त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भयवर्धिने प्राच्याम् रक्षतु मामैन्द्रे आग्नेयामग्निदेवता दक्षिणेवतो वाराहे नैरत्याम् खड्गधारिणे प्रदेत्याम् वारुणे रक्षे द्वायव्याम् मृगवाहिने कुलेत्याम् रक्षको वेरे ईशान्याम् शूलधारिणे ऊर्ध्वम् ब्रह्माणि मे रक्षे तथस्तात्वैष्णवी तथा एवम् दश दिशो रक्षे चामुण्डा शववाहना जया मे अग्रतस्थातो विजयास्थातु पृष्ठतः अजिता वामपार्श्वे तु दक्षिणे च पराजिता शिखां मे ज्योतिने रक्षेदुमामूर्तिव्यवस्थिता मालाधरे ललाटे च भ्रुवो रक्षेद्यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके शङ्खिने चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कपोलौ कालिका रक्षेत्कर्णमूले तुषाङ्गरे नासिकायाम् सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकला जिह्वायाम् च सरस्वती दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका खण्डिकाम् चित्रघण्टा च महामाया च तालुके कामाक्षी चिबुकम् रक्षेद्वाचम् मे सर्वमङ्गला ग्रीवायाम् भद्रकाली च पृष्ठवंशे धनुर्धरे नीलग्रीवा बहिःकण्ठे नलिकाम् नलकोबरे खड्गधारिण्युभौ स्कन्धौ द्वाहौ मे वज्रधारिणी हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलेस्तथा नखाञ्छोलेश्वरे रक्षे कुक्षौ रक्षेन्नलेश्वरे स्तनो रक्षेन्महालक्ष्मीम् मनश्योकविनाशिनी हृदयम् ललिता देवी उदरम् शूलधारिणी नाभौ च कामिने रक्षे गुह्यम् गुह्येश्वरे तथा कट्याम् भगवते रक्षे जानुने विन्ध्यवासिनि भूतनाथा च मेढ्रम् मे पूरो महिषवाहिनी जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी गुल्फयोर्नारसिंही च पादौ चामित तेजसे पादाङ्गुले शीर्मे रक्षेत्पादाधस्थलवासिनी नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी रोमकोपेषु कौबेरे त्वचम् वागेश्वरी तथा रक्तमज्जावसा मांसान्यस्थिमेदांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तम् च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चोडामणिस्तथा ज्वालामुखे नखज्वालामभेद्या सर्वसन्धिषु शुक्रम् ब्रह्माणि मे रक्षेच्छायाच्छत्रेश्वरे तथा अहङ्कारम् मनो बुद्धिम् रक्ष मे धर्मचारिणी प्राणापानो तथा व्यानम् समानोदानमेव च यशकीर्तिम् च लक्ष्मीम् च सदा रक्षतु वैष्णवी गोत्रमिन्द्राणि मे रक्षेत् पशोन्मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्याम् रक्षतु भैरवे मार्गम् क्षेमकरे रक्षेद्विरया सर्वतस्थिता रक्षाहीनम् तु यस्थानम् वर्जितम् कवचेन तु तत्सर्वम् रक्ष मे देवि जयन्ते पापनाशिने पदमेकम् न गच्छेत्तो यदीच्छेच्छुभवात्मनः कवचेनावृतो नित्यम् यत्र यत्राधिगच्छति तत्र तत्रार्थलाभश्च विदयः सार्वकामिकः यञ्ञै कामयते कामम् तन्तम् प्राप्नोति निश्चितम् परमैश्वर्यमतुलम् प्राप्स्यते भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् इदम् तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः दैवी कला भवेत्तस्यात्रैलोक्येऽप्यपराजितः देवे द्वर्षशतम् साग्रमवमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लूता विस्फोटकादयः स्थावरम् जङ्गमम् वापि कृत्रिमम् चापि यद्विषम् आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भोजराः केचराश्चैव जलजाश्चोपदेशिकाः सहजात्कुलजा मालाशाकिनीडाकिनी तथा अन्तरिक्षचरा घोराडाकिन्यश्च महाबलाः ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्माण्डाभैरवादयः नश्यन्ति दर्शनात् तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञस्तेजो वृद्धिकरम् परम् यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत् सप्तशतीम् चण्डीम् कृत्वा तु कवचम् पुरा यावद्भूमण्डलम् धत्ते सशैलवनकाननम् तावत्तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रिके देहान्ते परमम् स्थानम् यत्सुरेरपि दुर्लभम् प्राप्नोति पुरुषो नित्यम् महामाया प्रसादतः वाराहपुराणे हरिहरब्रह्म विरचितम् देव्याः कवचम् अस्य श्री अर्कलास्तोत्रमन्त्रस्य विष्णुर्षिः अनुष्टुप् छन्दः श्रीमहालक्ष्मीर्देवता श्रीजगदम्बा प्रीतये सप्तशते पाठाङ्गजपे विनियोगः ॐ नमश्चण्डिकायै जयन्ती मङ्गलाकाली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते मधुकैटभविद्रावी विधातृवरदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि महिषासुरनिर्नाश विधातृवरदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि वन्दिताघ्रियुगे देवी सर्वसौभाग्यदायिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि रक्तबीजवधे देवी चण्डमुण्डविनाशिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि नरेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे रूपं देहि जयं देहि यशो देहि द्विषो जहि तुमद्भ्यो भक्तिपूर्वम् त्वाम् चण्डिके व्याधिनाशिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि चण्डिके सततम् ये त्वाम् अर्चयन्तेह भक्तितः रोपन्तेहि जयन्तेहि यशो देहि द्विषो जहि देहि सौभाग्यमारोग्यम् देहि देवि वरम् सुखम् रोपन्तेहि जयन्तेहि यशो देहि द्विषो जहि विधेहि द्विषदाम् नाशम् विधेहि बलमुच्चकैः रूपम् देहि जयम् देहि यशो देहि द्विषो जहि विधेहि देवि कल्याणम् विधेहि परमाम् श्रियम् रूपम् देहि जयम् देहि यशो देहि द्विषो जहि विद्यावन्तम् यशस्वन्तम् लक्ष्मीवन्तम् जनम् कुरु रूपम् देहि जयम् देहि यशो देहि द्विषो जहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणदाय मे रूपम् देहि जयम् देहि यशो देहि द्विषो जहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि रूपम् देहि जयम् देहि यशो देहि द्विषो जहि कृष्णेन संस्तुते देवि शश्वद्भक्त्या त्वाम्बिके रूपम् देहि जयम् देहि यशो देहि द्विषो जहि हिमाचलसुतानाथ संस्तुते परमेश्वरि रूपम् देहि जयम् देहि यशो देहि द्विषो जहि सुरासुरशिरोरत्न निघृष्टचरणेऽम्बिके रूपम् देहि जयम् देहि यशो देहि द्विषो जहि इन्द्राणीपतिसद्भावा पूजिते परमेश्वरि रूपम् देहि जयम् देहि यशो देहि द्विषो जहि देवि भक्तजनोद्दाम दत्तानन्दोदयेऽम्बिके रूपम् देहि जयम् देहि यशो देहि द्विषो जहि पुत्रान् देहि धनम् देहि सर्वकामांश्च देहि मे रूपम् देहि जयम् देहि यशो देहि द्विषो जहि पत्नीम् मनोरमाम् देहि मनोवृत्तानुसारिणीम् तारिणी दुर्गसंसार सागरस्य कुलोद्भवाम् इदम् स्तोत्रम् पठित्वा तु महास्तोत्रम् पठेन्नरः स तु सप्तशते सङ्ख्या वरमाप्नोति संवदाम् मार्कण्डेयपुराणे अर्गलास्तोत्रम्। अस्य श्रीकीलकस्तोत्रमन्त्रस्य शिवऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वतीदेवता श्रीजगदम्बा प्रीत्यर्थम् सप्तशते पाठाङ्गजपे विनियोगः। ॐ नमश्चण्डिकायै। ॐ मार्कण्डेय उवाच विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे श्रेयः प्राप्तिनिमित्ताय नमः सोमार्थधारिणे सर्वमेतद्विनायस्तु मन्त्राणामपि कीलकम् सोऽपि क्षेममवाप्नोति सततम् जाप्य तत्परः सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेनस्तुवताम् नित्यम् स्तोत्रमात्रेण सिद्ध्यति न मन्त्रो नौषधम् तत्र न किञ्चिदपि विद्यते विना जाप्येन सिद्ध्येत सर्वमुच्चाटन।